गीता साधक संजीवनी चौथा अध्याय श्लोक 11 से 20 तक।
वसुदेव सुतं देवं कंसचारुरमार्दनं देवकी परमानंदं कृष्णं वंदे जगद्गुरुं। ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहं मम वर्तमानुवर्तन्ते मनुष्या पार्थ सर्वशः कांक्षन्तः कर्मणां सिद्धिं यजन्त इह देवता क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा सातुर्वर्ण्यं मया श्रेष्ठं गुणकर्म विभागश तस्य कर्तारमपि मां वेद्य कर्तारमव्ययम् न मां कर्माणि लम्बन्ति न मे कर्मफले स्पृहा इति मां यो हि जानाति कर्मभिर्न स बध्यते एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुहि पुरुकर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिता तत्ते कर्म प्रवक्ष्यामि यज्ञात्वा मोक्षसे शुभात् कर्मणो ह्यपि बोद्धव्यम् बोद्धव्यं च विकर्मण अकर्मणश्च बोद्धव्यं गहना कर्मणो गते कर्मण्यकर्म यः पश्येद कर्मणि च कर्म यः स बुद्धिमान् मनुष्येषु स युक्तः कृष्णकर्मकृत् यस्य सर्वे समारम्भा कामसङ्कल्पवर्जिता ज्ञानाग्निदग्धकर्माणम् तमाहो पण्डितं बुधा त्यक्त्वा कर्मफलासङ्गम् नित्यतृप्तो निराशय कर्मण्यभिप्रवृत्तो हि नैव किञ्चित् करोति स त्यक्त्वा कर्मफलासङ्गम् नित्यतृप्तो निराशय कर्मण्यभिप्रवृत्तो हि नैव किञ्चित् करोति सः।